विजया दशम्यः सुखदावसरे रेडियो नेपालः सकल श्रोतृभ्यः सुख शान्ति सुस्वास्थ्य समृद्धिनां कृते हार्दिकीं मंगलमयीं शुभकामनाम् अभिव्यनक्ति। एष रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तुति रत्नावली शर्मा। नेपालीनाम् सर्वाधिकम् महत्वाधायकम् बड़ा दशैं इति नाम्ना प्रसिद्धम् विजया दशमी पर्व अद्य आराष्ट्रम् हर्षोल्लास पुरस्सरम् समायोज्यमानमस्ति। विजया दशमी पर्वणः प्रमुखम् दिनम् अद्य नेपालिनः पितृः मान्यजनानाम् गुरु पुरोहितानांश करकमलेभ्यः दुर्गा भवान्यः अभिषेक ग्रहण पुरस्सरम् दध्यक्षतान् एवाङ्कुराश्च परिदधति। नवरात्रावधि विधिपूर्वकम् पूजितायाः विजयायाः प्रसाद ग्रहणेन सर्वत्र जयो लभ्यते इति धार्मिक विश्वासः समाजे सुचिरं प्रतिष्ठितो वर्तते। आश्विन शुक्ल प्रतिपदि घटस्थापनां कृत्वा रूपितानां यवानां अंकुराणि भगवत्याः प्रसाद स्वरूपः दध्यक्षताश्च दशम्यः दिने मान्यजनानां हस्तात् ग्रहणस्य परम्परा वर्तते। मिष्ठान्न भोजनस्य सुन्दर परिधान धरणस्य पारिवारिक मेलनस्य स्नेह सद्भावयोः अभिवर्धनस्य पर्वणः रूपेण समायोज्यमानं विजयादशमी पर्व न केवलं धार्मिकस्य अपितु सामाजिक सांस्कृतिक पर्वणः रूपेणापि महत्वपूर्णं मन्यते। स्वदेशे विदेशेषु च निवसन्तो नेपालिनः अद्य सपरिवारं एकत्र संस्थाय विजयादशम्यः टीका एवाङ्कुरान् सन्धार्य परस्परं शुभकामना आदान प्रदानं विदधति। अद्य विजयादशम्यः टीकाग्रहणस्य शुभमुहूर्तः षट्त्रिंशत् कलोत्तर एकादशवादने अस्ति इति नेपाल पञ्चाङ्ग निर्णायक समित्या ज्ञापितं वर्तते। अस्यैव आश्विन मासस्य गत सप्तदश दिवसे आश्विन शुक्ल प्रतिपदि सविधि आह्वानं कृत्वा आराधितायाः भगवत्याः विसर्जनम् अद्य क्रियते। अद्यैव प्रातः त्रयस्त्रिंशत् कलोत्तराष्टवादने शुभसमये दुर्गापूजायाः विसर्जनम् विधीयते। यद्यपि अद्य टीकाग्रहणस्य शुभमुहूर्तः षट्त्रिंशत् कलोत्तर एकादशवादने अस्ति तथापि दुर्गापूजायाः विसर्जनानन्तरम् आदिनम् यथासौविध्येन विजयादशम्यः टीकाशीर्वाद ग्रहणाय कापि बाधा नास्ति इति च पञ्चाङ्ग निर्णायक विकास समित्या ज्ञापितं वर्तते। अत्रान्तरे राष्ट्रपतिना रामचन्द्र पौडेलेन विजयादशमी पर्वण उपलक्ष्ये एकं शुभकामना सन्देशं प्रकाशयन् सर्वेषां नेपालजनानां सुख शान्ति समृद्धिनां कामना कृता वर्तते। तथैव उपराष्ट्रपतिना रामसहाय प्रसाद यादवेन विजयादशम्यः समाजे चेतनां जागरूकतां च आनीय मनोवचनाभ्यां सुकर्मार्थं सर्वे प्रेरणां लभन्ताम् इति शुभकामना व्यक्ता अस्ति। प्रधानमन्त्री केपी शर्मा ओली विजयादशम्या पूर्वं जलविप्लव भूस्खलनादि विपद्भि जनजातायाः पीडाया मुक्तये विजयादशमी पर्व अस्मभ्यं क्षेमतां प्रयच्छतु इति शुभकामनां व्यक्तवान्। एवमेव नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवाभिधेन, सभामुखिन देवराज घिमिरेभिधेन, पूर्व राष्ट्रपतिना विद्यादेवी भण्डारिणा च एकैकं सन्देशं प्रकाश्य सर्वेभ्यो नेपालजनेभ्यः विजयादशमी पर्वणः शुभकामना प्रकटिता अस्ति। नवरात्रि पर्वणः नवमी दिने ह्यः शुक्रवासरे राष्ट्रपतिना रामचन्द्र पौडेलेन नवकन्याः पूजिताः। राष्ट्रपति भवने शीतल निवासे आयोजिते पूजन समारोहे राष्ट्रपतिना पौडेलेन नवदुर्गायाः स्वरूपकः नवकन्याः सविधि पूजिताः। नवरात्रि पर्वणः अवसरे राष्ट्रपति कार्यालयेन प्रतिवर्षं कन्या पूजन कार्यक्रमः आयोज्यते। अत्रान्तरे राष्ट्रपतिना पौडेलेन ह्य एव काष्ठमण्डपस्य विभिन्नानि शक्तिपीठानि प्राप्य भगवत्याः दुर्गायाः पूजाराधना कृता अस्ति। दुर्गापक्षस्य अवसरे राष्ट्रपतिना पौडेलेन राजधान्याः नक्साल भगवती गुहेश्वरी मैतीदेवी कालिकास्थान भद्रकाली रक्तकाली नरदेवी शोभा भगवती इन्द्रायणी भगवती मन्दिराणि प्राप्य भगवत्याः दुर्गायाः दर्शनं कृतं पूजा च विहिता। विजयादशम्याः अवसरे राष्ट्रप्रमुखेण प्रतिवर्षं शक्तिपीठानां दर्शनकरणस्य परम्परा वर्तते। ह्यै महाष्टमी महानवमी पर्व च समादृते ह्य तिथिरनुसारेण अष्टमी नवमी च उभेपि तिथि आस्थाम इत्यतः उभेपि पर्वणि सहैव समाद्रियते इति पञ्चाङ्ग निर्णायक विकास समित्या ज्ञापितमासीत्। महानवम्यः दिने काष्ठमण्डपस्य वसन्तपुर प्रासाद परिसरस्थितं तलेजु भवानी मन्दिरं सर्वसाधारण जनानां कृते उद्घाटितम् आसीत्। मन्दिरम् एतत् समग्रे वर्षे एकदिनमेव अर्थात् नवरात्रस्य नवमे दिने महानवमी पर्वणि एव उद्घाट्यते। भक्तजनानां सौविध्यार्थं नवम्यः मध्यरात्रिं यावदपि मन्दिरम् उद्घाटितमेव आसीत्, परन्तु मन्दिरात् भगवती तलेजु भवानी सप्तम्यः दिने एव हनुमद्वार प्रासादस्य मूलस्थाने प्रापिता आसीत् एवं विजयादशम्यः दिने अद्य प्रातरेव पुनः मन्दिरे प्रापिता। दैलेख जनपदात् सुर्खेत जनपदं प्रति गच्छत बसयानस्य दुर्घटनायां ह्य एको जन मृतोऽस्ति, घटनायां द्वौ जनौ आहतौ स्तः। बसयानं गुरास ग्रामपालिकायाः चतुर्थवडा क्षेत्रस्य डबल गैरा स्थाने दुर्घटितम् आसीत्। दुर्घटनायां दैलेख जनपदस्य दुल्लु नगरपालिकायाः त्रयोदश वडा क्षेत्रस्य द्वाविंशति वर्षीयः महेन्द्र शाही मृतोस्थिति कर्णाली प्रदेश प्रहरी कार्यालयस्य सूचनाधिकारी नारायण डांगी असूचयत्।